इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्दझाः। अथ वार्ताः विशदीकृत्य प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः 11 वादने आकाशवाणीतः मन की बात इति कार्यक्रमे स्वीयं मनोगतं प्रकटयिष्यति। मासिकस्य आकाशवाणी कार्यक्रमस्य एतत् 11 शततमं संस्करणं भविष्यति। आकाशवाण्याः दूरदर्शनस्य च सर्वाभिः वाहिनीभिः अस्य कार्यक्रमस्य प्रसारणं भविष्यति। अयं हि आकाशवाणी वार्ता विभागस्य अन्तर्जाल पटले www.newsonair.com इत्यत्र अपि च न्यूज ऑन एआईआर इति चलदूरभाषीये तन्त्रांशे अपि उपलब्धः भविष्यति। आकाशवाणी दूरदर्शन वार्ता प्रधानमन्त्री कार्यालय सूचना प्रसारण कार्यालयानां यूट्यूब वाहिनीभिः अपि अस्य कार्यक्रमस्य साक्षात् प्रसारणं भविष्यति। हिन्दीभाषायां प्रसारणस्य पश्चात् अस्य प्रसारणम् आकाशवाण्या क्षेत्रीयासु भाषासु अपि भविष्यति। लद्दाखक्षेत्रे एकस्मिन् युद्धाभ्यासोपक्रमे टैंकाख्य युद्धोपकरणात्मक वाहनस्य निमज्जनेन 5 सैनिकाः वीरगतिम् अलभन्त। अभ्यासोपक्रमे आकस्मिकरूपेण समुत्पन्नेन जलाप्लावेन इयं दुर्घटना जाता, यत्र टैंकाख्यं वाहनं श्योक इति नद्यां निमज्जितम्। एतां दुर्घटनाम् अभिलक्ष्य शोकं प्रकटयन् रक्षामन्त्री राजनाथसिंह उक्तवान् यत् देशवासिन वीरसैनिकानाम् अनुकरणीयां सेवां न कदापि विस्मरिष्यन्ति इति। हिमालय पर्वत श्रृंखलाया कश्मीरोपत्यकायां श्री अमरनाथ वार्षिक तीर्थयात्रा ह्य औपचारिक रूपेण समारब्धा। द्विपञ्चाशद्दिवसीया इयं यात्रा अस्य वर्षस्य अगस्तमासस्य 31 दिनांके श्रावण पूर्णिमायाः शुभावसरे पूर्णतां यास्यति। अमरनाथ यात्रायाः शुभारम्भावसरे प्रधानमन्त्रिणा श्रीमता नरेन्द्रमोदिना एकस्मिन् सामाजिक सन्देशपटले प्रसारिते सन्देशे तीर्थयात्रिणः वर्धापिताः शुभाशंसिताः च। श्रीमोदी उक्तवान् यत् बाबा बर्फानी इत्यस्य भगवतः शंकरस्य दर्शन पूजाभ्यां सन्नद्धेयं यात्रा भक्तेषु अप्रतिमोर्जायाः संचारं करोतीति। सः उक्तवान् यत् भगवतः शंकरस्य शुभाशीर्वचोभिः समेषां भक्तानां स्वस्तिः स्यादिति। भारतीयर्तु विज्ञान विभागेन प्रोक्तं यत् दक्षिण पश्चिमीया प्रावृट् सम्प्रति राजस्थान पश्चिमीयोत्तरप्रदेश हरियाणा दिल्ली मध्यप्रदेशानाम् अवशिष्ट भागान् छत्तीसगढ पश्चिम बंगाल झारखण्ड बिहार राज्यानां कतिपय भागाञ्च प्रति अग्रेसरति। विभागेन उक्तं यत् हिमाचल प्रदेश उत्तराखण्ड हरियाणा चण्डीगढ दिल्ली उत्तरप्रदेश पूर्वीय राजस्थान मध्यप्रदेश ओडिशा कोंकण गोवा मध्य महाराष्ट्रेषु च कतिपय भागेषु भूरिशः वृष्टेः संभावना वर्तते। एनडीए इति राष्ट्रिय परीक्षा संघेन स्थगितानां निरस्तीभूतानां च परीक्षाणां नूतन तिथयः घोषिताः सन्ति। एकस्याम् अधिसूचनायां संघेन उक्तं यत् विश्वविद्यालयानुदानायोगस्य राष्ट्रिय पात्रता परीक्षा अगस्तमासस्य 21 दिनांकतः सेप्टेम्बर मासस्य 4 दिनांकं यावत् सम्पत्स्यन्ति। अन्ते क्रीडावार्तासु रोहित शर्मणः नेतृत्वे भारतीय दलेन गतरात्रौ बार्बाडोसे आयोजिते निर्णायके द्वन्द्वे आईसीसी 20-प्रति-20 विश्व चषकीय क्रिकेट स्पर्धा श्रृंखला विजिता। भारतेन दक्षिणाफ्रीकादलं 7 धावनांकैः पराजितम्। पूर्वं प्रथमं दण्डेन क्रीडिता भारतेन 20 क्षेपचक्रेषु ऐतिहासिकरूपेण 670 धावनांकाः अर्जिताः। प्रत्युत्तरे दक्षिणाफ्रीकादलं 79 धावनांकान् एव अर्जितुम् अपारयत् इति वार्ताः।